चारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदाधार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदाधार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदाधार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदाधार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदाधार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदाधार पृथ्वीं दिवं च स आचार्य तपसा